अथ सप्तदशः पाठः। एवं रामेणोक्तः स्वधर्मं विद्वान् सीतया सह लक्ष्मणो नगरात् निर्गतः। वनं तु क्रामन् दुःखमेव तत्कार्यमिति चिन्तयामास। ततस्तेन गर्भिणीं सतीं सीतां वाल्मीकेराश्रमे हित्वा पुनरयोध्यायामागत्य च रामो भ्रात्रोक्तः यन्मया कर्तव्यमासीत् तदहं कृतवान् अस्मीति। बहुषु संवत्सरेषु सम्पूर्णेषु रामेण वनमागत्य द्वौ कुमारौ रूपेण देदीप्यमानौ दृष्टौ। इमौ मे पुत्राविति ज्ञात्वा रामस्तावुक्तवान् माता वां वक्तव्या। अद्य तव भर्त्रा सह पुनरयोध्यां गन्तव्यमिति तथा कृते राजानमुपसृत्य सीता प्रत्युक्तवती त्वया सह पौरमध्ये स्थातुं न शक्नोमीति। एवमुक्तवती सा भूमिरन्तरमविशत्।